हरिः ॐ
शुक्लाम्बरधरं विष्णं यजिवर्णं च दर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नापशान्तये यस्य द्विरथवत्राद्याः पारिषद्याः परश्चितम् विघ्नं निघ्नन्ति सततं विश्वस्यरन्तमाश्रये व्यासं वसिष्ठरप्तारं जक्ते पौत्रमगल्वशम् पराशरात्मजं वन्दे शुकदातन्तपोनिधिम् व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः अविकाराय शुद्धाय नित्याय परमात्मने तदैकरूपरूपाय विष्णवे सर्वजिष्णवे यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् मुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॐ नमो विष्णवे प्रभविष्णवे श्रीवैशम्बाय नुवाच श्रुत्वा धर्माणशेषेण पावनानि च सर्वजः युधिष्ठिरस्यान्दनवम् पुनरेवाभ्यभाषत श्रीयुधिष्ठिर उवाच किमेकम् दैव तल्लोके किम् वाप्येकम् परायणम् स्तुवन्तः कङ्कमर्चन्तः प्राप्निर्मानवाशुभम् को धर्मः सर्वधर्माणाम् भवतः परमामतः किञ्च मुन्मुच्यते जन्तज्जन्मसंसारबन्धनात् श्रीभीष्म उवाच जगत्प्रबन्धे वदमनन्दम् पुरुजात्मम् सुवन्नाम सहस्रेण पुरुजस्तदोत्थितः तमेव चार्चयन्नित्यम् भक्त्या पुरुषमव्ययम् ध्यायम् स्तुवन्नमस्त्यम् श्रीयजमानस्तमेव च अनादिनिधनम् विष्णम् सर्वलोकमहेश्वरम् लोकाध्यक्ष्यम् स्तुवन्नित्यम् सर्वदुःखादिको भवेत् ब्रह्मण्यम् सर्वधर्मज्ञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्बोधम् सर्वभूतभवोद्भवम् एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षम् स्वैरच्चैर्नरस्वदा परमम्यो महत्तेजः परमम्यो महत्तपः परमम्यो महद्ब्रह्म परमम्यः परायणम् पवित्राणाम् पवित्रम्यो मङ्गलानाम् च मङ्गलम् दैवतम् देवतानाम् च भूतानाम् योजयः पिता यतः सर्वाणि भूतानि भवन्त्यादियुगागमे यस्मिंश्च प्रयम्यान्ति पुनरेवैगश्चये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रम् मे शृणु पापयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ऋषिर्नाम्नाम् सहस्रस्य वेदव्यासो महामुनिः छन्दानुष्टप्रभादेवो भगवान् देवकीसुतः अमृताम् ज्योतो बीजम् शक्तिर्देवकिनन्दनः कृशामाहृदयम् तस्य शान्त्यर्थे विनियुज्यते विष्णम् जिष्णम् महाविष्णम् प्रभविष्णम् महेश्वरम् अनेकरूपदैत्यान्तन्नमामि पुरुषोत्तमम् अस्य श्रीविष्णो दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीवेदव्यासो भगवान् ऋषिः अनुष्टप्छन्दः श्रीमहाविष्णुपरमात्मा श्रीमन्नारायणो देवता अमृतांशोद्भवो भानुति बीजम् देवकीनन्दनश्रष्टेति शक्तिः उद्भवः क्षोपणो देव इति परमो मन्त्रः शङ्खभृन्नन्दकीचक्रीति कीलकम् शार्ङ्गधन्वागदाधर इत्यस्त्रम् रथाङ्गवाणि रक्षोऽभ्येति नेत्रम् त्रिसामादामगत्सामेति कवचम् आनन्दम् परब्रह्मेति योनिः श्रीऋतुसुदर्शनः काल इति दिग्बन्धः श्रीविश्वरूप इति ध्यानम् श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामपारायणे विनियोगः ध्यानम् क्षीरोदन्नप्रदेशे शुचिमणिविलतत्सैकतैर्मोक्तिकानाम् माला क्लुप्तासनस्तस्फटिकमणिनिभैर्मोक्तिकैर्मण्डिताङ्गः शुभ्रैरभ्रैररभ्रैरुपरि विरचितै मुक्तबीजूषवर्षैः आनन्दीनः पुनीयादरिनलिनगदा शङ्कपाणिर्मुकुन्दः भूः पादौ यस्य नाभिर्व्यदसुरलिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाचाशिरोद्योर्मुखमपि दहना यस्य वास्तेयमद्भिः अन्तस्तम् यस्य विश्वम् सुरनरखगवो गोगिगन्धर्वदैत्यैः चित्रम् रं रम्यदेतम् त्रिभुवनवपुचम् विष्णुमीशम् नमामि शान्ताकारम् भुजगशयनम् पद्मनाभम् दुरेशम् विश्वाधारङ्गकलसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिहृद्यानगम्यम् वन्दे विष्णम् भवभयहरम् सर्वलोकैकनाथम् मेघश्यामम् पीतकोशेयवासम् श्रीवत्साङ्गम् कौस्तुभोर्भाजिताङ्गम् पुण्यापेदम् पुण्डरीकायताख्यम् विष्णम् वन्दे सर्वलोकैकनाथम् ससङ्गचक्रम् स किरीटकुण्डलम् स्वपीतवस्त्रम् सरसीरुहेक्षणम् सहारवक्षस्थलशोभिगोत्तमं नमामि विष्णुं विरजा चतुर्भुजम्। हरिः ॐ विश्वं विष्णुर्वषट्कारो भूतमव्यपवत्प्रभुः भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययपुरुषस्साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदान्येत प्रधानपुरुषेश्वरः नारसिंहपश्चीमान् केशवपुरुषोत्तमः सर्वस्यर्वशिवस्तानर्भूतादिर्निधिरव्ययः सम्भवो भावनाभर्ता प्रभव प्रभुरीश्वरः स्वयम्भोशम्भुरादित्य पुष्कराक्षो महात्मनः अनादिनिधनोदाता विधाता धातुरुत्तमः अप्रमेयाधिकेश पद्मनाभो अमरप्रभुः विश्वकर्मा मनस्तष्टा स्थविष्टस्थविरः ध्रुवः अग्राक्षशाश्वतकृष्णा लोहिताक्षप्रदर्दनः प्रभुः सत्रिकमुद्याम पवित्रम् मङ्गलम् वरम्। ईशानप्राणदप्राणादेष्टश्रेष्ठ प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वराविक्रमी धन्वे मेधावी विक्रमक्रमः अनुत्तमो दुराधर्ष कृतज्ञ कृतिरात्मवान् सुरेशश्चरणम् चर्म विश्वरेता प्रजाभवः अहत्संवत्सरो व्याल प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरसिद्धः सिद्धिः सर्वादिरच्युतः वृषाकपिरमेजात्मा सर्वयोगविनिसुतः वसुर्वसुमनास्तत्यः समात्मा संहितस्तमः अमोघ पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिराबभ्रर्विश्वयो निशिष्टवाः अमृतश्चानुर्वरारोहो महातपाः सर्वगः सर्वविद्वानुर्विश्वक्सेनोजनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविक्रमिः लोकाध्यक्ष सुराध्यक्ष धर्माध्यक्ष कृताकृतः चतुरात्मा चतुर्व्योः चतुर्दंशचतुर्भुजः भ्राजिष्णर्भोजनम्भोक्ता सहिष्णर्जगदादिजः अनघोभिजयोजेता विश्वयो निःपुनर्वसुः उपेन्द्रोपामनप्रांशुरमोघशुचिरोर्जितः अतीन्द्रस्तङ्ग्रहसर्गो धृतात्मा नियमायमः वेद्यो वैद्यस्वदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देशोपश्रीमानमेयात्मा महादिक् महेश्वासो महीभर्ता श्रीवासत्सताङ्गतिः अनिरुद्धसुरानन्दो गोविन्दो गोविदाम्पतिः मरीचिर्दमनाहंस सुपर्णा भुजगोत्तमः हिरण्यनाभस्तुतपा पद्मनाभ प्रजापतिः अमृत्यः सर्वधिक्सिंह सन्धाता सन्धिमान् स्थिरः अजो दुर्मशणश्चात्ता विश्रुतात्मा असुरारिः गुरुर्गुरुतमो धाम सत्यसत्यपराक्रमः निमिजो निमिषस्रग्वी वाचस्पतिरुदारधीः अग्रणीर्ग्रामणी श्रीमान्यायो नेता समीरनः सहस्रमूर्ध्वा विश्वात्मा सहस्राक्ष सहस्रपात् आवर्तनानि वृत्तात्मा संवृतः सम्प्रमर्दनः अहत्संवर्तको वह्निरनिलो धरणीधरः सुप्रसाद प्रसन्नात्मा विश्वदृग्विश्वभुग्विभुः सत्कर्ता सत्कृतस्तादर्जन्नुर्नारायणाधरः असङ्ख्येयो प्रमेयात्मा विशिष्टशिष्टकच्युतिः सिद्धार्थसिद्धसङ्कल्प सिद्धिदसिद्धिधावनः वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तश्रुतिसागरः सुभुजोदुर्धरो वाग्मी महेन्द्रो वसुतो वसुः नैकरूपो बृहद्रूप शिपिष्टप्रकाशनः ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रदापनः शुद्धस्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृताभ्युद्धोभानुशशबिन्दुः सुरेश्वरः औषधम् जगतस्येतः सत्यधर्मपराक्रमः भूतभव्यभवन्नादः पवनः पावनोदलः कामः कामकृत्कान्तः कामः कामप्रदप्रभुः युगाधिगत्यगावर्तो नैकमायो महाशनः अदृश्योऽव्यक्तरूपश्च सहस्रजितनन्दजित् इष्टाविष्टशिष्टेष्ट शिखण्डी नहुषावृतः क्रोधः क्रोधकृत्कर्ता विश्वबाहृर्महीधरः अच्युतप्रथितप्राणप्राणतो वासवानुजः अपां निधिरधिष्ठानमप्रमत्तप्रतिष्ठितः स्कन्दः स्कन्दतरोदुर्यो वरदो वायुवाहनः वासुदेवो बृहद्बाहुरादिदेव पुरन्दरः अशोकस्तारणस्तारश्चौरिश्चोरजनेश्वरः अनुकूलस्य तावर्तः पद्मी पद्मनिभेक्षणः पद्मनाभोरविन्दाक्ष पद्मगर्भशरीरवृत् महर्तिरुद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलश्चरभो भीमः समयज्ञो हविर्हरिः సర్వలక్షణ లక్ష్యంగా లక్ష్మీవాన్ సమితింజయ ఇక్షరారోహితో మార్గో హేతుర్దామోదర సహ మహీధరో మహాభాగో వేగవానమితాశన ఉద్భవక్షోపణో దేవ శ్రీగర్భ పరమేశ్వర కరణం కారణం కర్త వికర్త గహనాగుహ వ్యవసాయ వ్యవస్థాన సంస్థానస్థానదో ధ్రువ పరార్థి పరమస్పష్టస్తుష్ట పుష్ట సుభేక్షణ రామో విరామో విరతో మార్గో నేయో నయో నేహ వీరశక్తిమతాం శ్రేష్టో ధర్మో ధర్మ విదుత్తమ వైకుంఠ పురుష ప్రాణ ప్రాణద ప్రణవ ప్రథు హిరణ్య గర్భ శత్రుఘ్న వ్యాప్తో వాయురథోక్షజ సుదర్శన కాల పరమేష్టి పరిగ్రహ ఉగ్ర సంవత్సరో దక్షో విశ్రామో విశ్వరక్షిణ విస్తారస్తావరస్థాన ప్రమాణం బీజమవ్యం అర్థోరర్థో మహాకోచో మహాభోగో మహాధన అనిర్విణ్ణస్థ విష్టోభో ధర్మయోగో మహావక నక్షత్ర నక్షత్రీ క్షమహక్షావస్వమీయన యజ్ఞయజ్ఞో మహేజ్ఞ క్రతాంగతి సర్వదర్శీన్ యుక్తాత్మా సర్వజ్ఞో జ్ఞానముత్తమం ధర్మగద్ధర్మగద్ధర్మీ సతః క్షరమక్షరం అభిజ్ఞాత సహస్రాంశుర్ విధాతా కృతలక్షణ ధమస్తినేమి సత్తస్త సింహాభూత మహేశ్వర ఆదిదేవో మహాదేవో దేవేజో దేవభృద్గురు ఉత్తరా గోపతిర్గోక్త జ్ఞానగమ్య పురాతన శరీరభూత వృద్ధోక్త కపీంద్రో భూరి దక్షిణ సోమపామృతమ సోమ పురుజి పురుషోత్తమ వినియోజే సత్యసంధో దాశార శాశ్వతాంబుధి జీవో వినీత సాక్షి ముకుందో మిత విక్రమ అంభో నిధిర నందాత్మా మహోధిజయోంతక అజో మహార స్వాభావ్యోజితామిత్ర ప్రమోదన ఆనందోనందనోనంద సత్యధర్మ త్రివిక్రమ మహర్షి కపిలాచార్య కృతజ్ఞ వేదినీపతి త్రిపద త్రిదశాధ్యక్ష మహాసింహ కృతాంతకృత మహావరాహో గోవింద సుచేణ కనకాంగది ముఖ్యో గభీరో గహన గుప్త కనకదాధర వేదా స్వాంగోజిత కృష్ణ దృఢసంకర్షణోచ్యుత వరుణోవర్ణో వృక్ష పుష్కరాక్షో మహామనాః భగవాన్ భగవానందీ వనమాలీహలాయుధ ఆదిత్యో జ్యోతిరాదిత్య సహిష్ణుర్గతి సత్తమ సుధన్వాకండ పరశుర్ధ అరుణోధమిణ ప్రద ద్రివిస్పృస్తర్వధృగ్వ్యాసో వాచస్పతిరజో నిజ త్రిసామాసామగత్సామ నిర్వాణం భేషజం విశక్ సన్యాసగచ్చమశ్యాంతో నిష్టాశాంతి పరాయణం శుభాగశ్యాంతి దశ్రష్టా కుముద కుబలేశయ గోహితో గోపతిర్గోత్త వృషభాక్ష వృషప్రియ అనివర్తి నివృత్తాత్మా సంచేత్తాక్షేమగచ్చివ శ్రీవత్సవక్ష శ్రీవాస శ్రీపతి శ్రీవతాంబర శ్రీధ శ్రీధ శ్రీనివాస శ్రీనిధి శ్రీ విభావన శ్రీధర శ్రీకర శ్రేయ శ్రీమాన్ లోకత్రయాశ్రయ స్వక్ష శంగస్య తానందో నందిర్జ్యో నిర్గణేశ్వర విజితాత్మా విధేయాత్మా సత్కీర్తి ఛిన్న సంచయ ఉదీర్ణ సర్వదక్షురనీశ్చ ఆచురస్థిర భోజయో భోజనాభూతిర్విశోకశోకనాశన అచ్యుష్మానచ్యుత కుంభో విశుద్ధాత్మా విశోధన అనిరుద్ధో ప్రతిరథ ప్రద్యుమ్నో మిత విక్రమ కాలనేమినిహావీర శౌరిశ్చూరజనేశ్వర త్రిలోకాత్మాదిలోకేశ కేశవ కేజిహరి కామదేవః కామపాలః కామీకాంతకృతాగమః అనిర్దేశ్యవ పరమిష్ణుర్వీరానంతో ధనంజయ బ్రహ్మణ్యా బ్రహ్మగద్బ్రహ్మ బ్రహ్మ బ్రహ్మ వివర్ధన బ్రహ్మ విబ్రాహ్మణో బ్రహ్మీ బ్రహ్మజ్ఞో బ్రాహ్మణ ప్రియ మహాక్రమో మహాకర్మ మహాతేజ మహోరగ మహాకృతిర్మహాయజ్వ మహాయజ్ఞో మహావి స్తవ్య స్తవ ప్రియ స్తోత్రం సుధిస్తోతారణ ప్రియ పూర్ణ పూరయితా పుణ్య పుణ్యకీర్తిరణామయ మనోజవస్తి సకరో వసురేత వసుప్రద వసుప్రదో వాసుదేవో వసుర్వసుమనాహవి సద్గతి సత్కృతి సత్త సద్భూతి సత్పరాయణ శూరసేనో శ్రేష్ఠ సన్నివాస సుయామున భూతావాసో వాసుదేవ సర్వాసు నిలయో నర దర్ప దర్పదో దృప్తో దుర్దరోథ అపరాజిత విశ్వమూర్తిర్మహామూర్తిర్దీప్తమూర్తిర్మూర్తిమాన్ అనేకమూర్తిరవ్యక్త శతమూర్తిశ్చదానన ఏకో నైవ సత్యం వ్యత్యత్పదమనుత్తమం లోకబంధుర్లోకనాథో మాధవో భక్తవత్సల సువర్ణవర్ణ హేమాంగో వరాంగ చందనాంగది వీరహ విషమత్యోన్యో ఘృతాశీలచలశ్చల അമാനീമാനദമാന്യ ലോകസ്വാമീതിർലോകധൃത് സുമേധാമേധജോധന്യസത്യമേധാധരാധര തേജാവൃഷാദ്യുതിധര സർവശത്രഭൃതാംബര പ്രഗ്രഹാനിഗ്രഹ വ്യഗ്രാനൈകശൃംഗോഗദാഗ്രജ ചതുർമൂർത്തിശ്ചതുർബാഹു ചതുർവ്യൂഹ ചതുർഗതി ചതുരാത്മാ ചതുർഭാവഃ ചതുർവേദവിദേകപാത് സമാവർത്തോ നിവൃത്താത്മാ ദുർജയോ ദുരതിക്രമഃ ദുർലഭാദുർഗമാദുർഗോ ദുരാവാസോ ദുരാരിഹ ശുഭാംഗോ ലോകസാരംഗ സുതന്തുസ്തന്തുവർദ്ധനഃ ഇന്ദ്രകർമാ മഹാകർമാ കൃതകർമാ കൃതാഗമഃ ഉദ്ഭവ സുന്ദരസ്വന്തോ രത്നനാഭസ്സുലോചനഃ അർക്കാവാദുതനശൃംഗീ ജയന്തഃ സർവവിദ്യൈ സുവർണബിന്ദുരക്ഷാഭ്യഃ സർവഭാഗേശ്വരേശ്വരഃ മഹാനദോ മഹാഗർത്തോ മഹാഭൂതോ മഹാനിധിഃ കുമുദകുന്ദരകുന്ദ പർജന്യ പാവനോ നിലഃ അമൃതാംശാമൃതോപഃ സർവജ്ഞ സർവതോമുഖഃ സുലഭസ്തുവൃതസ്യുദ്ധ ചതുർജിത് ചതുർതാപനഃ നിഗ്രാദോദുംബരോശ്വത്തശ്ചാണോരാന്ധ്രശൂദനഃ സഹസ്രാതിഷ്ഠത്വധിക്വ സപ്തേധാ സപ്തവാഹനഃ അമോർത്തിരന ഗോചിഞ്ജോ ഭേദ്ഗിർഭയനാശനഃ അണുബൃഹത്കൃജസ്തുളോ ഗുണഭിർനിർഗുണോ മഹാന് അധൃതസ്വധൃതസ്വാസ്യ പ്രാഗ്വംശോ വംശവർദ്ധനഃ ഭാരകൃത്കലിതോ യോഗീ യോഗീശസർവകാമദഃ ആശ്രമശ്രവണഃ ശ്യാമഃ സ്വർണോ വായുവാഹനഃ ധനുർധരോ ധനുർവേദോ ദണ്ഡോ സമയിതാദമഃ അപരാജിതസർവസഃ നിയന്താ നിയമോയമഃ സത്വവാംസാത്വികസത്യ സത്യധർമ്മപരായണഃ അഭിപ്രായ പ്രിയാർഹോർഹ പ്രിയകൃത് പ്രീതിവർദ്ധനഃ വിഹായതജ്യോതിർസുരതിർഹുതവിഭുഃ രവിർവിലോചന സൂര്യ സവിതാ രവിലോചനഃ അനന്തഹുതഹൃദ്വോക്ത സുഖദോ നൈകദോഗ്രജഃ അനിർവിണ്യസ്സ ദാമർശീ ലോകാദിഷ്ടാനവദ്ഭുതഃ സനാതനാതനഹമക്തപിലക്തപിരവ്യയഃ സ്വസ്തിദസ്വസ്തിഗൃസ്വസ്തി സ്വസ്തിമുഖ് സ്വസ്തിദക്ഷിണഃ അരൗദ്രകുണ്ഡലീചക്രീ വിക്രമ്യോർജിതസാധനഃ ശബ്ദാധികശ്ശബ്ദസഃ ശശിരശ്ചർവരീകരഃ അക്രൂരഃ പേചലോദക്ഷോ ദക്ഷിണഃ ക്ഷമിണാംബരഃ വിദ്വത്തമോവീതവയഃ പുണ്യശ്രവണകീർത്തനഃ ഉത്താരണോ ദുഃസ്കൃതിഃ പുണ്യോ ദുഃസ്വപ്നനാശനഃ വീരഃ ആരക്ഷണസ്കന്തോ ജീവനം പര്യവസ്ഥിതഃ അനന്തരൂപോനന്തർശീർജിതമന്യർഭയാപഃ ചതുരശ്ലോകവീരാത്മാ വിദിശോദ്യാദിശോദിശഃ അനാദിർഭൂർഭുവോലക്ഷ്മീ സുവീരോ രുചിരാംഗദഃ ജനനോജന ജന്മാതിർഭീമോ ഭീമപരാക്രമഃ ആധാരനിലയോദാതാ പുഷ്പഃ സപ്രജാഗ്രഃ ഊർധ്വഗസ്വതദാചാര പ്രാണദഃ പ്രണോപ്പണഃ പ്രമാണം പ്രാണനിലയ പ്രാണവൃത്പ്രാണജീവനഃ തത്വം തത്വവിദേകാത്മാ ജന്മമൃത്യുജരാതികഃ ഭൂർഭുവസ്വസ്ഥരുസ്താരഃ സവിതാ പ്രപിതാമഹഃ യജ്ഞോ യജ്ഞപതിര്യജ്വാ യജ്ഞാംഗോ യജ്ഞവാഹനഃ യജ്ഞകൃത്യജ്ഞകൃത്യജ്ഞീ യജ്ഞഭുജ്ഞസാധനഃ യജ്ഞാന്തകൃത്യജ്ഞഗുഹ്യമന്നമന്നാദയേവ ച ആത്മയോനിസ്വയഞ്ജാതോ വൈഖാനഃ സാമകായനഃ ദേവകീനന്ദന സ്രഷ്ടാ ശിരീശ പാപനാശനഃ ശംഖവൃന്ദന്തകീചക്രീശാന്നധന്മാകഥാധരഃ അഥാംഗപാണി രക്ഷാഭ്യഃ സർവപ്രഹരണായുധഃ ശംഖവൃന്ദന്തകീചക്രീശാന്നധന്മാകഥാധരഃ അഥാംഗപാണി രക്ഷാഭ്യഃ സർവപ്രഹരണായുധഃ ശ്രീ സർവപ്രഹരണായുധോന്നമൈതി വനമാലീകദീശാർഗീയങ്കീചക്രീചനന്ദകീ ശ്രീമാന്നാരായണ വിഷ്ണുർവാസുദേവോ അഭിരക്ഷതോ വനമാലീകദീശാർഗീയങ്കീചക്രീചനന്ദകീ ശ്രീമാന്നാരായണ വിഷ്ണുർവാസുദേവോ അഭിരക്ഷതു ഇതീരങ്കീർത്തനീയസ്യ കേശോസ്യ മഹാത്മനഃ നാംനാം സഹസ്രം ദിവ്യാനാമശേഷേണ പ്രകീർത്തിതം ചൈതം ശൃണുയാന്നിത്യം യശ്ചാപി പരികീർത്തയേത് നാശുഭം പ്രാപ്നിയാ കിഞ്ചിത് സ്വമുത്രേ ഹജമാനവഃ വേദാന്തകോ ബ്രാഹ്മണസ്യാ ക്ഷത്രിയോ വിജയീ ഭവേത് വൈശ്യോധന സമുദ്രസ്യാ ശൂദ്രസുഖമാപ്നിയാത് ധർമാർത്ഥീ പ്രാപ്നിയാ ധർമ്മമത്താർത്ഥീ ച അർത്ഥമാപ്നിയാത് കാമാനമാപ്നിയാത് കാമീ പ്രജാർത്ഥീ ച ആത്മീയാ പ്രജാഃ ഭക്തിമാന്യസ്യ ദോത്ഥായ സ്തുതിത്തദ്ഗതമാനസഃ സഹസ്രം വാതു ദേവത്യനാമ്നാമേതത്ര കീർത്തയേത് യശ പ്രാപ്നോതി വിപുലം ജ്ഞാതി പ്രാധാന്യമേവ ച അചലാം പ്രിയമാപ്നോതി ശ്രേയ പ്രാപ്നോത്യമുത്തമം നഭയം ക്വചിദാത്മാതി വീര്യം തേജസ്വിന്ദതി ഭവത്യരോഗാദ്യതിമാൻ വരരൂപഗുണാന്വിതഃ രോഗാർത്ഥമുച്യതേ രോഗാദ്ഭദ്രമുച്യേതബന്ധനാത് ഭയാന്മുച്യേത ഭീതത്വമുച്യേതാപന്ന ആപദഃ ദുർഗാണ്യതിരസത്യാശു പുരുഷ പുരുഷോത്തമം त्वन्नाम सहस्रेण नित्यं भक्ति समन्वितः वासुदेवाश्रयो मर्त्यो वासुदेव परायणः सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानाम् अशुभम् विद्यते क्वचित् जन्म मृत्युजरा व्याधि भयन्नैव उपजायते इमं तावदीयान श्रद्धा भक्ति समन्वितः युञ्जेदात्मसुभक्षान्ति स्वीकृत स्मृतिकीर्तिभिः न क्रोधो न च मात्सर्यम् न लाभो न अशुभामतिः भवन्ति कृत पुण्यानाम् भक्तानाम् पुरुषोत्तमे ज्योतिचन्द्रार्क नक्षत्रम् कन्दिजापोर्मः दधिः वासुदेवस्य वीर्येण विधृतानि महात्मनः ससुरासुरगन्धर्वम् दयक्षोरगराक्षसम् जगद्वशे वर्धतेऽहम् कृष्णस्य सचराचरम् इन्द्रियाणि मनोबुद्धिः सत्त्वम् तेजोबलम् धृतिः वासुदेवात्मकान्याहुः क्षेत्रम् क्षेत्रज्ञ एव च सर्वागमानामाचार प्रथमम् परिकल्प्यते आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः विषयपितरो देवो महाभूतानि दातवः जङ्गमाजङ्गमम् चेदम् जगन्नारायणोद्भवम् योगो ज्ञानम् तथा साङ्ख्यम् विद्याशिल्पादिकर्म च वेदाश्चात्राण विज्ञानमेतत् सर्वम् जनार्दनात् एको विष्णुर्महद्भूतम् पृथग् भूतान्यमेकजः त्रीन्लोकाम् व्याप्य भूतात्मा भुङ्क्ते विच्च भुगव्ययः इमम् तवम् भगवतो विष्णोर्व्यासेन कीर्तितम् पठेदीच्ये पुरुषश्रेयप्राप्तुम् सुखानि च विश्वेश्वरमदम् देवम् जगतः प्रभमव्ययम् भजन्ति ये पुष्कराक्षम् न देयान्तिपराभम् श्रीनदेयान्तिपराभवान्नम इति अर्जुन उवाच पद्मपत्र विशालाक्ष पद्मनाभसुरोत्तमा भक्तानामनुरक्तानाम् द्राता भोजनार्दना श्रीभगवानुवाच यो मान्नाम सहस्रेण स्तोतुमिच्छति पाण्डव सोऽहमेकेन श्लोकेन स्तुतेव न संशयः स्तुतेव न संशयोऽन्नम इति व्यास उवाच वासनाद्वासुदेवस्य वासिसन्ते जगत्त्रयम् सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते श्रीवासुदेव नमोऽस्तु तवोन्नम इति पार्वत्युवाच केनोपायेन लघुना विष्णोर्नामसहस्रकम् पठ्यते पण्डिते नित्यम् श्रोतुमिच्छाम्यहम् प्रभो ईश्वर उवाच श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यम् राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यम् राम नाम वरानने श्रीराम नाम वरानवोन्नम इति ब्रह्म उवाच नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षि शिरोरुबाहवे सहस्रनाम्ने पुरुषाय चात्मदे सहस्रकोटियुगधारिणे नमः श्रीसहस्रकोटियुगधारिणे नमोऽन्नम इति सञ्जय उवाच यत्र योगेश्वरकृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम श्रीभगवानुवाच अनन्या चिन्तयन्तो मा ये जनाः प्रत्युपासते तेषाम् नित्याभियुक्तानाम् योगस्य हम्वाम्यम् अनन्या चिन्तयन्तो मा ये जनाः प्रत्युपासते तेषाम् नित्याभियुक्तानाम् योगस्य हम्वाम्यम् परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामिगे युगे तात्ता विजन्ना स्थितिराश्च भीताः घोरेश व्याधिच वर्तमानाः सङ्गीर्ति नारायण शब्दमात्रम् युक्त दुःखा सुखिनो भवन्ति आत्ता विजन्ना स्थितिराश्च भीताः घोरेश व्याधिच वर्तमानाः सङ्गीर्ति नारायण शब्दमात्रम् युक्त दुःखा सुखिनो भवन्ति यदक्षरपदभ्रष्टम् मात्रायि हन्तु यद्भवेत् तच्चर्मम् गम्यताम् देव नारायण नमोऽस्तु ते विसर्गबिन्दमात्राणि पदपादाक्षराणि च न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमा स्वस्ति प्रजाभ्यः परिपालयन्ता न्याय्येन मार्गेण महिमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकास्तमस्ताः सुखिनो भवन्तु।